इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः स्वतन्त्रता दिवसस्य पूर्वसन्ध्यायाम् अद्य राष्ट्रं सम्बोधयिष्यति। राष्ट्रपतेः राष्ट्रसम्बोधनम् अद्य सायं सप्तवादनतः राष्ट्रिय प्रसारण प्रणालिका सहित आकाशवाण्या दूरदर्शनस्य च सर्वप्रणालिकाभिः हिन्दी आंग्ल माध्यमेन च प्रसारयिष्यते। प्रादेशीय भाषामाध्यमेनापि इदं प्रसारणं सम्बोधनं च अद्य सार्धनववादने सायंकाले श्रोतुं शक्यते। कलकत्ता उच्चन्यायालयेन कोलकाता नगरस्य एकस्मिन् चिकित्सकीय महाविद्यालये चिकित्सालये च एकया महिला चिकित्सिकया सह घटितं दुष्कर्म प्रकरणं केन्द्रीयान्वेषण विभागं प्रति निरीक्षणार्थं प्रेषितम्। न्यायालयेन आरक्षिबलाय आदेश प्रदत्त यत् सर्वाणि प्रतिवेदनानि अन्वेषण विभागाय प्रदातव्यानि। पूर्व प्रधानाचार्यस्य विलम्बेन समागतोत्तरम् अभिलक्ष्य उच्चन्यायालयेन प्रश्न पृष्ट। उक्तं च यत् राज्य प्रशासनं प्रदर्शनकारिभ्य चिकित्सकेभ्य किं कार्यं सम्पादयति। यो हि प्रदर्शनरतै चिकित्सकै समग्र देशे रोगिण काठिन्यम् अनुभवन्ति। भारतस्य ऋतुविभागेन पूर्वानुमानं कृतमस्ति यत् आगामिषु सप्त दिनेषु पश्चिम हिमालयीय क्षेत्रे उत्तरप्रदेशे हिमाचल प्रदेशे पूर्वोत्तरीय भारते च प्रचण्ड वृष्टिः निरन्तरं भविष्यति। आगामिषु चतुर्ष् पञ्चष् च दिनेष् हरियाणायां राजस्थाने पूर्वोत्तर भारते चापि प्रचण्ड वृष्टिः सम्भाविता। गुरुवासरे स्वतन्त्रता दिनस्य उत्सवस्य भागत्वेन हर घर तिरंगा अभियानस्यान्तर्गतं सम्पूर्णे देशे जनसमागमाः आयोज्यन्ते। अस्मिन् मासे पञ्चदश दिनांकपर्यन्तं सम्पूर्णे देशे नागरिकेष् देशभक्तिभावं वर्धयितुम् एतत् अभियानम् आयोज्यते। एतस्य उपक्रमस्य अन्तर्गतं प्रशासनं जनान् स्वगृहे त्रिवर्णध्वजारोहणं कृत्वा त्रिवर्णध्वजया सह सेल्फी इति स्वच्छायाचित्रं स्वीकृत्य हर घर तिरंगा इति जालपुटके उपरोपणं कर्तुं प्रार्थयति। उपराष्ट्रपतिः जगदीप धनखड़ः ह्यः प्रातः नवदिल्ल्याः भारतमण्डपं स्थले हर घर तिरंगा इत्यस्य एकस्मिन् कार्यक्रमे भागं भजितवान्। अस्मिन् अवसरे केन्द्रीय मन्त्रिणः उपस्थिताः आसन्। मेजर ध्यानचन्द राष्ट्रिय क्रीडांगणे एषः जनसमागमः सम्पन्नः। अस्मिन् अवसरे एकं जनसमूहं सम्बोधयन् उपराष्ट्रपतिः धनखड़ अवदत् यत् हर घर तिरंगा अभियानं राष्ट्रस्य स्वातन्त्र्यं गौरवं विकसित भारतं प्रति प्रतिबद्धतां च प्रतिबिम्बयति। केन्द्रसर्वकारेण दिल्ल्याः रक्तदुर्गे अष्टसप्ततितमे स्वातन्त्र्यदिवसस्य उत्सवे विशिष्टातिथिरूपेण पंचायती राज संस्थानां महिला प्रतिनिधिभिः सह चतुश्शतं निर्वाचित प्रतिनिधयः आमन्त्रिताः। अस्मिन्नेव क्रमे पंचायती राज मन्त्रालयेन श्वः नवदिल्ल्यां पंचायतेषु महिला नेतृत्व विषये राष्ट्रिय कार्यशाला अपि आयोजितास्ति। मल्लयुद्ध क्रीडिकायाः विनेश फोगाट इत्यस्याः प्रकरणे क्रीडा न्यायालयेन पुनः निर्णयः स्थगितः। भारतीय ओलम्पिक संघ एकस्मिन् वक्तव्ये उक्तवान् यत् शुक्रवासरे सायं सार्ध नववादन पर्यन्तं निर्णयम् आगन्तुं शक्नोति। अवधेयं वर्तते यत् विनेश इत्यनया क्यूबा देशस्य मल्लयुद्ध क्रीडिकया यूस्नेलिस गुजमान लोपेज इत्यनया सह संयुक्त रूपेण रजत पदकस्य आग्रहं क्रीडायाः मध्यस्थ न्यायालयेन सह आग्रहं कृतास्ति इति वार्ताः।